भूतांशु बिम्बसाराद् भूयोऽपि विनिर्गतो भृशं सूक्ष्मः सारो गौरीवदनात् दरहासो हरतु दुःखजालं नः
कुलकुण्डे प्रणुवन्ति चेतन्ति हृदि समस्तजन्तूना मूर्धनि विचिन्तयन्ति मृत्युञ्जय महिषि विजयते भवति
तेजो जलान्नसारैस्त्रयोणवु मूलहृदयमस्तेषु पाकाते निष्पन्नास्त्रैलोक्यव्यापिके अम्बदेहवता
शरीरशिल्पे द्वारेण ब्रह्मरन्ध्रसंज्ञेन नाडीपथेन गत्वा तैजसमणुमाविशस्य मेयबले
अंशेनाविश्यादौ यासि पुनस्तं ततश्च निर्यासि मार्गाभ्यां द्वाभ्यां त्वं नाड्याः पश्चात्पुरश्च सिद्धाभ्यां
यातायातविहारे मातस्तस्मिन् भवत्युपाधिस्ते आरभ्य मस्तकस्थलम् आमूलाधारम् अस्थिपञ्जरिका
नृतनुषु विहरन्तीं त्वाम् उपाधिवीणा कृतेर्जगन्मातः सादृश्यात् कुण्डलिनीं परोक्षवादप्रियाः प्रभाषन्ते
नभसशीर्षद्वारा प्रवहन्तीं यैह विग्रहे शक्तिम् अनुसन्दधाति नित्यम् कृतिनस्तस्य इतरैः अलं योगैः
सर्वेषु विससि तुल्यं निर्गच्छसि तुल्यमम्ब भुवनानां ज्ञाता चेदसि शक्त्यै न ज्ञाता चेद्भवस्य अहङ्कृत्यै
अवतरणं ध्यातं चेत् आरोहणमद्भुतं भविच्छक्तेः यस्मिन्निदं शरीरं भवति महद्वैद्युताग्नियन्त्रमिव
आरोहणमध्यातृषु हृदये अहङ्कारमात्र निष्पत्त्यै तदनु शरीरमिदं स्यात् सुखाय दुःखाय वा यथा भोगम्
या व्यक्तिता जनिमताम् अहङ्कृतिः सकलभेदधी भूमिः पृथगिव तवाम्बिके सा सत्यैवोपाधि संश्रया भान्ति
एतामाहुरविद्यां बीजं संसारवृक्षराजस्य सर्वरसफलयुतस्य प्रारब्धजलेन देवि दोहदिनः
व्यक्तित्वार्पकदेहे निम्नीकुल्येव जनिमता मातः प्रवहत्य नारतं ते शक्तिश्चित्राणि देवि तन्माना
सारमपामणुभूतं हृदयस्थं सूरयो वितुश्चित्तं श्रेष्ठं प्राणं केचन पञ्चानिलमूलभूतमाहुरिमम्
चित्तसंयम व्यवहरतां विभजन अनभिज्ञानात् विलोकव्यवहारः तदधीनस्तत्त्वधीर्भवत्यन्या
तदनाह तस्य विलसत् दक्षिणतोदहरनामकगुहायां चित्तं कुलकुण्डाते कापि अनुगृह्णाति देवि रश्मिकला
चित्तमनुश्लिष्टं ते कलयाङ्गुष्ठप्रमाणमिव भासा दर्पणममलब्रह्म प्रतिबिम्बाकर्षकं शिवे भवति
अन्तरमावर्ताभं प्रतिबिम्बमकायम् एतदीशस्य अङ्गुष्ठाभं प्राहुर्मानेनोबाधिचैत्यभासस्ते
दम्पत्योर्वां रूप प्रतिबिम्बौ चक्षुषो शिवे भवतः कुलकुण्डे हृदये चापि अरूपयोरेव कश्चिदुल्लासः
चित्तमणियो वित्तं ययिदं मूल्ये प्रपञ्चतोऽप्यधिकम् हृदयगुहायां निहितं जानीते स विजहाति बहिराशाः
हृदयात् संप्रस्थिता धृता नाड्या त्वद्रुचिरुक्ता बुद्धिः त्वयि निष्ठा भवति देवि तन्मि निष्ठा
अन्नमयाणुं प्राप्तं धीज्योतिश्चन्द्रमार्कमिव तेजः परिभाष्यते महेश्वरी मन इति सङ्कल्पसम्भवस्थानम्
सङ्कल्पे सङ्कल्पे चिच्छक्तिं मनसि विस्फुरन्तीं त्वा यवपास्ते सजनस्ते गृह्णाति महेशवल्लभे चरणम्
आधारचक्रशयने ममेह निद्रां विहाय विचलन्ति गीतयेताः परमा उपतिष्ठन्तां जगद्विभोः कान्ता